कृत्नेह कल्पित मासनम् हिमचले स्नानम् च दिव्यांबरम् नानारत्न विभूषितम् मृगमदामोदाङ्कितम् चन्दनम् जाति चंपक बिल्व पत्र रचितम् पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं खंडरचिते पात्रे घृतं पायसं भक्षं पञ्चविधं पयोदधियुतं रम्भाफलं पानकं शाकानां यतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम् ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकोहलकला गीतं च नृत्यं तथा साष्टांगं प्रणतिः स्तुतिर्बहुविधा एतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां ग्रहाण प्रभो आत्मा त्वं गिरिजामते सहचराः प्राणाः शरीरं ग्रहम् पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः संचारः पतियोः पृथक्षणविधि स्तोत्राणि सर्वागिरो यत्तत्कर्म करोमि तत् अखिलं शम्भो तवाराधनम् करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधं विहितमविहितं वा सर्वमेतच्छमस्व जय जय